ಯೇನಾಕ್ಷರಸಮಾನಾಯಣಹಿರಣ್ಯಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ವಾಯಿನಯೇ ನಮಃ ಯೇನ ಸೂತಾಗಿರಃ ಪುಂಸಾಂ ವಿಮಲೈಃ ಶಬ್ದವಾರಿಭಿಃ ತಮಸ್ಯಾಜ್ಞಾನಜಂ ಭಿನ್ನಂ ತಸ್ಮೈ ವಾಯಿನಯೇ ನಮಃ ಐವಣ್ ಋಲ್ಕ್ ಏಓಂ ಅಯೌಚ್ ಹಯವರಟ್ ಲಣ್ ನ್ಯಮಗಣನಂ ಝಹೈ ಘಡಧಶ್ ಜಬಗಡದಶ್ ಖ ಫ ಛ ಠ ಥ ಜಡದೌ ಪಪೈ ಶ ಶ ಸರ್ ಅಲ್ ಇತಿ ಮಾಹೇಶ್ವರಾಣಿ ಸೂತ್ರಾಣಿ. ಸರ್ವೇಭ್ಯೋ ನಮಃ. ಗತಕಕ್ಷಾಯಾಂ ಆಡಿಯೋ ಕ್ಲೇಶ ಕಾರಣತಃ ಅಸ್ಮಾಭಿ ಮಧ್ಯೆ ಎವ ಕಕ್ಷಾ ಸ್ಥಗಿತ, ಕಕ್ಷಾ ನ ಆರಬ್ಧ ಎವ ಇತ್ಯೇವ ವಕ್ತುಂ ಶಕ್ಯಂ. ಅದ್ಯ ತಾಮೇವ ಕಕ್ಷಾಂ ಅನುವರ್ತಯಿಷ್ಯಾಮಃ. ಪ್ರಗತ ಕಕ್ಷಾಯಾಂ ಅಸ್ಮಾಭಿಃ ಕೇಚನ ವಿಚಾರಾಃ ಅಧೀತಾಃ, ಯತ್ರ ವಯಂ ಪ್ರತ್ಯೇಕಂ ಅಧ್ಯಾಯಂ ಸ್ವೀಕೃತ್ಯ ತದುಪರಿ ವಿಚಾರಾಂ ಕೃತವಂತಃ. ವಿಚಾರಾಂ ತತ್ರಕೇ ವಿಚಾರಾಃ ಪ್ರಸ್ತುತಾಃ. ಕಥಂಚ ಅಧ್ಯಾಯಸ್ಯ ಸ್ವರೂಪಂ ಭವತಿ ಇತ್ಯಾದಿ ವಿಚಾರಾಂ ಅಧಿಗತವಂತಃ. ತತ್ರ ಪ್ರಥಮಾಧ್ಯಾಯೇ ಸಂಜ್ಞಾಃ ಪರಿಭಾಷಾಶ್ಚ ಪ್ರೋಕ್ತಾಃ. ದ್ವಿತೀಯಾಧ್ಯಾಯೇ ಸಮಾಸ ವಿಧಾಯಕಾನಿ ಸೂತ್ರಾಣಿ ತಥೈವ ವಿಭಕ್ತಿ ನಿರ್ಣಾಯಕಾನಿ ಸೂತ್ರಾಣಿ ಚ ಅಸ್ಮಾಭಿಃ ಅವಲೋಕಿತ. ತತಃ ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಪ್ರಥಮಪಾದಸ್ಯ ವಿಷಯ ಅಪಿ ಚಿಂತನಂ ಪ್ರವೃತ್ತಂ. ಅದ್ಯ ಕಿಂಚಿತ್ ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಪ್ರಥಮಪಾದಸ್ಯ ವಿಶ್ಲೇಷಣಂ ಕೃತ್ವಾ ತತಃ ತುರೀಯ ಪಂಚಮಾಧ್ಯಾಯಯೋಃ ವಿಷಯೆ ಚಿಂತಯಿಷ್ಯಾಮಿ. ತುರೀಯಂ ನಾಮ ಚತುರ್ಥಮಿತ್ಯರ್ಥಃ. ಚತುರ್ಥ ಪಂಚಮಾಧ್ಯಾಯಯೋಃ ವಿಷಯ ಚಿಂತನಂ ಕರಿಷ್ಯಾಮಃ. ತತಃ ಅಗ್ರಿಮೇ ಸಪ್ತಾಹೆ ಅವಶಿಷ್ಟಾನಾಂ ಅಧ್ಯಾಯತ್ರಯಾಣಾಂ ಚಿಂತನಂ ಕೃತ್ವಾ ತದಗ್ರಿಮ ಸಪ್ತಾಹೆ ಕಥಂ ಸೂತ್ರಾರ್ಥಃ ಕಲ್ಪನೀಯಃ ಇತಿ ವಿಚಾರಂ ಅವಲೋಕ್ಯ ಅವಲೋಕಯಿಷ್ಯಾಮಃ. ಏನಂತ ಅದ್ಯ ಅಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ವಯಂ ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಚತುರ್ಥ ಪಂಚಮಾಧ್ಯಾಯಯೋಃ ವಿಷಯೆ ಚ ಚಿಂತನಂ ಪ್ರವರ್ತಯಿಷ್ಯಾಮಃ. ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಪ್ರಥಮಪಾದಸ್ಯ ಪ್ರಥಮಂ ಸೂತ್ರಮಿದಂ ಪ್ರತ್ಯಯಃ ಇತಿ. ಪ್ರತ್ಯಯಃ ಇತ್ಯಯಂ ಮಹಾನ್ ಅಧಿಕಾರಃ ಇತಿ ಸರ್ವೈಃ ಜ್ಞಾಯತೆ ಏವ. ಅಯಂ ಚ ಅಧಿಕಾರಃ ತೃತೀಯಾಧ್ಯಾಯಸ್ಯ ಪ್ರಥಮಪಾದತಃ ಆರಭ್ಯ ಪಂಚಮಾಧ್ಯಾಯಸ್ಯ ಚತುರ್ಥಪಾದಸ್ಯ ಅಂತಿಮಸೂತ್ರಂ ಯಾವತ್ ವ್ಯಾಪ್ನೋತಿ ಇತಿ ಸರ್ವೈಃ ಸ್ಪಷ್ಟಂ ಅವಗತಂ ವರ್ತತೆ. ತತ್ರ ಪ್ರತ್ಯಯಃ ದ್ವಿಧಾ ವಿಧೀಯಂತೆ. ಪ್ರತ್ಯಯಃ ಇತ್ಯುಕ್ತೆ ಸಫಿಕ್ಸ್ ಇತಿ ವ್ಯವಹಾರೆ ಆಂಗ್ಲಿಕೀಯ ಕ್ರಿಯತೆ ತೇವ. ಅತ್ರ ಪ್ರತ್ಯಯಃ ದ್ವಿಧಾ ವಿಧೀಯಂತೆ. ಧಾತುಭ್ಯಃ ಕೇಚನ ಪ್ರತ್ಯಯಃ ವಿಧೀಯಂತೆ, ಪ್ರಾತಿಪದಿಕೇಭ್ಯಃ ಕೇಚನ ಪ್ರತ್ಯಯಃ ವಿಧೀಯಂತೆ. ಮಯಾ ಪ್ರಾಯಃ ಏತೆ ವಿಚಾರಾಃ ಪೂರ್ವಮಪಿ ಪ್ರೋಕ್ತಾಃ, ಪುನಃ ತೇಷಾಂ ಕಿಂಚಿತ್ ಸಿಂಹಾವಲೋಕನಂ ಕೃತ್ವಾ ಅಗ್ರೆ ಗಮಿಷ್ಯಾಮಃ. ಪ್ರತ್ಯಯಃ ದ್ವಿಧಾ ವಿಧೀಯಂತೆ ಧಾತುಭ್ಯಃ ಪ್ರಾತಿಪದಿಕೇಭ್ಯಶ್ಚ. धातुभ्यः विधीयमानाः प्रत्ययाः तिङ् प्रत्ययाः कृत् प्रत्ययाः तथैव सनादि प्रत्ययाः सनादिप्रत्ययाः क्वचित् प्रातिपदिकेभ्यः अपि विधीयन्ते इति तेषां वैशिष्ट्यम्। प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः सुप्रत्ययाः स्त्रीप्रत्ययाः एवं तद्धितप्रत्ययाः भवन्ति। एवञ्च धातुभ्यः इत्युक्ते धातवः द्विसहस्रधातवः प्रोक्ताः वर्तन्ते संस्कृतवाङ्मये। द्विसहस्रधातुभ्यः एते प्रत्ययाः विधीयन्ते तिङ्प्रत्ययस्य विधानेन ते तिङन्ताः भवन्ति। उदाहरणार्थं भवति गच्छति इत्यत्र तीति श्रूयते तत्र एकः तिङ्प्रत्ययः। एतादृशाः अष्टादश तिङ्प्रत्ययाः सन्ति। ततः कृत् प्रत्ययाः कृदन्त इति व्यवहारः यदस्माभिः श्रूयते पाकः कर्ता कारक इत्यादीनि रूपाणि यानि भवन्ति तानि सर्वाण्यपि कृदन्तरूपाणि भवन्ति। जिगविशति पिपठिषति इत्यादिषु सनादयः दृश्यन्ते। सन् प्रत्ययः दृश्यते गोभूयते इत्यत्र यङ् तच्च सनादिषु अन्तर्भवति। एवञ्च धातुभ्यः विधीयमानाः इमे प्रत्ययाः। प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः सन्ति सुप्रत्ययाः स्त्रीप्रत्ययाः तद्धितप्रत्ययाश्च। उदाहरणार्थं सुप्रत्ययस्य उदाहरणं रामः हरिः इत्यादि। अत्र राम इति प्रातिपदिकं तस्मात् सुप् इति प्रत्ययः सु इति प्रत्ययः सुप्रत्यये विहिते सति रामः इति विसर्गसहितं रूपं भवति। एकम् एवम् एकविंशति रूपाणि भवन्ति अस्मिन्। सप्तविभक्तिषु त्रिषु वचनेषु आहत्य एकविंशतिरूपाणि एकविंशतिः रूपाणि सुप्रत्ययविधानेन भवति। तत्र स्त्रीप्रत्ययाः सन्ति केचन नव अष्टौ स्त्रीप्रत्ययाः सन्ति। उदाहरणार्थम् इदानीं कुमारः इति अस्ति तस्य स्त्रीत्वे रूपं भवति कुमारी इति। तयसि प्रथमे सूत्रेण ङीप् इति प्रत्ययः भवति। एवं च स्त्रीप्रत्ययस्य एकम् उदाहरणं। तद्धितप्रत्ययः नाम तद्धितं नाम तेभ्यो हितम् इत्यर्थः। तेभ्यः नाम लौकिकेभ्यः वैदिकेभ्यः शब्देभ्यः हिताः इत्यर्थः। लौकिकेभ्यः वैदिकेभ्यः च शब्देभ्यः हिताः तद्धिताः तेभ्यो हिताः तद्धिताः इति। एतादृशाः प्रत्ययाः उदाहरणार्थं दशरथस्य अपत्यं कुमार इति अस्माभिः वक्तुम् इष्यते। तत्र दशरथस्य अपत्यं कुमान् एतावत् कथनापेक्षया दाशरथिः इति कथनेनैव तत् साधयितुम् इच्छामः। तदर्थं तद्धितप्रत्ययम् ई इति प्रत्ययं तत्र योजयामः। ईकार ञकार चचन्य इत्यत्रैः ञकारः सः ई इति प्रत्ययः स च तद्धितप्रत्ययः। एवं तस्य योजनेन सः तद्धितान्तः भवति। एवञ्च प्रत्ययः द्विधा विधीयन्ते धातुभ्यः प्रातिपदिकेभ्यश्च। धातुभ्यः विधीयमानाः प्रत्ययाः तिङ्प्रत्ययाः कृत्प्रत्ययाः सनादयः। प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः सुप्रत्ययाः स्त्रीप्रत्ययाः तद्धितप्रत्ययाः। तृतीयाध्यायस्य प्रथमपादस्य स्वरूपं किञ्चिदिव एवमस्ति। तृतीयाध्यायस्य प्रथमपादस्य प्रथमं सूत्रं भवति प्रत्ययः। तच्च अधिकारसूत्रं भवति। तस्य अधिकारः तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रादारभ्य पञ्चमाध्यायस्य चतुर्थपादस्य षष्टितमसूत्रपर्यन्तं व्याप्नोति। पुस्तकम् उद्घाटयन्ति चेत् पञ्चमाध्यायस्य चतुर्थपादस्य चतुर्थं सूत्रं भवन्तः अवलोकयितुं शक्नुवन्ति। निष्प्रवाणिश्चायति। पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमं सूत्रमिदं भवति निष्प्रवाणिश्च, एवं तावत्पर्यन्तम् अस्य अधिकारः वर्तते। एवमेव परश्च इत्यधिकारः, ततः अर्जुदात्तश्च इति, ततः धातोरेकाचोहलादे इति धात्वधिकारः, अपरमधात्वधिकारः अस्ति धातोः इति। एवञ्च एतेषाम् अधिकाराणां विषये संक्षिप्तमया परिचयः पूर्वमेव प्रदत्तः यदा अधिकाराणां स्वरूपं प्रदर्शितमासीत्। पुनश्च अस्मिन्नेव पादे संज्ञासूत्राण्यपि प्रोक्तानि, यथा धातुसंज्ञा उक्ता। धातुसंज्ञा पूर्वमपि प्रथमाध्यायस्य प्रथमपादे काचित् संज्ञा उक्ता भूवादयो धातवः इति। तत्र भूवादिगणे पठिते गणः नाम कश्चन समूहः, पाणिनिना गणपाठाः पठिताः, धातुपाठश्च पठितः। धातुपाठे धातूनां कश्चन गणः निर्मितः, भुवादिगणः, अदादिगणः, जुहोत्यादिगणः इत्येवं क्रमेण दशानां गणानां निर्माणं कृतम्। तत्र भुवादयो धातवः इति सूत्रेण गणे पठितानां धातूनां विषये धातु इति संज्ञा दत्ता। सनाद्यन्ता धातवः इति सूत्रेण येभ्यः धातुभ्यः सन्प्रत्ययः विधीयते तादृशस्य सन्प्रत्ययान्तस्य धातोः सन् इत्यनयोः द्वयोः युगपत् मिलित्वा धातु इति संज्ञा दीयते अनेन सूत्रेण, सनाद्यन्ता धातवः इति सूत्रेण इति धातुसंज्ञायाः विशेषः। धातुसंज्ञा द्वयोः प्रदानेन तत्र शुद्धस्य धातोः अत्र प्रत्ययसहितस्य सहितस्य कश्चित् धातु इति संज्ञा दीयते। ततः उपपदसंज्ञा इति प्रदत्ता, उपपदं नाम समीपे विद्यमानं पदम् उपपदम्। ततः कृत् इति कृतकिम् इति कृत् संज्ञा प्रदत्ता, कृत्यसंज्ञा सत्याः इति इत्येवं क्रमेण संज्ञाः प्रदत्ताः। परिभाषासूत्रमेकं पठितं वासरूपोऽस्त्रियामिति, एतेषां विषये विस्तृतरूपेण मया न गम्यते, यतोहि लघुपरिचयः इत्येव अस्माभिः विषयः स्वीकृतः। विस्तृते सति सम्पूर्णस्य वर्षस्य कालावकाशः अपेक्षितः स्यात्, यतोहि महान् विचाराः वर्तन्ते एतेषु। वासरूपोऽस्त्रियाम् इत्येषा परिभाषा भवति, तृतीयाध्यायस्य प्रथमपादे पठिता इयं परिभाषा। ततः एते प्रत्ययाः अस्मिन् अध्याये प्रोक्ताः, सन् क्यस्य काम्यस्य क्यश् इत्यादि प्रत्ययाः अस्मिन् अधिकारे अस्मिन् अस्मिन् तृतीयाध्यायस्य प्रथमपादे प्रोक्ताः। तृतीयाध्यायस्य द्वितीयपादम् अवलोकयामः। द्वितीयपादे भूताधिकारः अस्ति, वर्तमाने लट् इति सूत्रेण वर्तमानार्थे लडधिकारः अर्थः, वर्तमानाधिकारः लडधिकारः वर्तमानाधिकारः अर्थः। आक्रे तच्छील तद्धर्म तत्साधुकारिषु इति सूत्रेण तच्छीलाधिकारः अर्थः इत्येवं क्रमेण अधिकाराः तत्र प्रोक्ताः तृतीयाध्यायस्य द्वितीयपादे। तृतीयाध्यायस्य तृतीयपादे वर्ण्यः विषयः भवति एते अधिकाराः विशेषतया तत्र प्रोक्ताः। भविष्यति गम्यादयः भावे अकर्तरिचकारके संज्ञायां स्त्रियां किन् करणाधिकरणयोश्च इत्येवं क्रमेण अधिकारसूत्राणि तृतीयाध्यायस्य तृतीयपादे प्रोक्तानि। तत्र प्रत्ययाः अपि प्रोक्ताः, प्रत्ययानां विषयसङ्ग्रहः मया अत्र न कृतः। प्रत्ययानां विषये तत्रैव ग्रन्थे भवद्भिः यदि चौखम्बा ग्रन्थः अथवा पुष्पादीक्षित् महाभागया विरचितः अष्टाध्यायी सूत्रपाठः इति ग्रन्थः यदि भवतां हस्ते स्यात् तर्हि तत्र प्रत्ययेषु स्थूलाक्षरैः प्रत्ययाः प्रदर्शितास्सन्ति, प्रत्ययाः स्थूलाक्षरैः दर्शितास्सन्ति, भवन्तः तद् दृष्ट्वा अवगन्तुं शक्नुवन्ति। चतुर्थपादे उक्ताः विचाराः इमे सन्ति। अधिकारः अस्ति तस्य इति एकः एव अधिकारः तस्मिन् पादे दृश्यते, चतुर्थपादे तृतीयाध्यायस्य चतुर्थपादे लस्य इत्येकः एव अधिकारः अस्ति। संज्ञाद्वयं प्रोक्तं, सार्वधातुकसंज्ञा तिंशित् सार्वधातुकं, तिङ् प्रत्ययानां, तिङ् इति प्रत्ययः मया उक्तः उक्ताः सन्ति, तिङ् प्रत्ययः तिप्तसि तिप्तस्थाम् विद्वहि महीम् इत्येते अष्टादश तिङ् प्रत्ययास्सन्ति। तिङ् प्रत्ययानां सार्वधातुक इति संज्ञा वर्तते। तथैव षित् शकारः इत् यस्य सः षित् भवति। इत् नाम एति गच्छति इति इत्, यः प्रत्यये न तिष्ठति तस्य इत् इति संज्ञा भवति। एवं च तिङ् षित् सार्वधातुकम् इत्यनेन तिङ् प्रत्ययानाम् एवं शकारः इत् यस्य प्रत्ययस्य तादृश प्रत्ययानां च सार्वधातुक इति संज्ञा प्रदत्ता। ततः अवशिष्टानां सर्वेषामपि आर्धधातुक इति संज्ञा, केषाञ्चन विशेषतयापि आर्धधातुकसंज्ञा विहिता। ते च तृतीयाध्यायस्य चतुर्थपादे चतुर्दशोत्तरशततमसूत्रादारभ्य काञ्चन सूत्राणि तत्र प्रोक्तानि अध्यायसमाप्तिं यावत् आर्धधातुसंज्ञा प्रोक्ता। अवशिष्टानाम् आर्धधातुसंज्ञा इत्युक्ते किञ्चित् भिन्नानाम् आर्धधातुक इति संज्ञा प्रोक्ता। इदानीं तुरीयपञ्चमाध्यायस्वरूपम् ईषदिव पर्यालोचयामः। तत्र वैशिष्ट्यं किञ्चित् अवगन्तव्यम्। पूर्वं तृतीयाध्याये अस्माभिः धात्वधिकारः दृष्टाः दृष्टः। तस्मिन् अधिकारे केवलं धातुम् उद्दिश्य प्रत्ययाः प्रधानतया तत्र प्रत्ययाः धातोः विहिताः, धातुभ्यः प्रत्ययाः प्रोक्ताः। अत्र तुरीयपञ्चमाध्याययोः चतुर्थपञ्चमाध्याययोः विशेषतया प्रत्ययाः प्रातिपदिकेभ्यः उच्यन्ते। तृतीयाध्यायस्य चतुर्थपञ्चमाध्याययोः इत्यनयोः भेदः एतावानेव अस्ति यत् तृतीयाध्याये धातुभ्यः प्रत्ययाः विहिताः, चतुर्थपञ्चमाध्यायोः प्रातिपदिकेभ्यः प्रत्ययाः विधीयन्ते। प्रातिपदिकं नाम किमपि न, प्रत्ययं सामान्यतया वक्ष्यामि, अयमेव सिद्धान्तः इति न स्वीकर्तव्यः। प्रत्ययं विना यः शब्दः उच्चार्यते तत् प्रातिपदिकं भवति, सः शब्दः प्रातिपदिकम् इति कथ्यते। राम इत्यस्ति, तत् प्रत्ययः नास्ति। भवतां सन्देहः स्यात् सीता इत्यस्य प्रत्ययः नास्ति खलु, तदपि प्रातिपदिकं वा इति, तथा नास्ति। तत्र प्रत्ययः उत्पन्नः प्रत्ययस्य उत्पत्त्यनन्तरं तस्य लोपः जातः। मया पूर्वमेव उक्तम्, अयं सिद्धान्तः नास्ति यत्र प्रत्ययः नास्ति तत्प्रातिपदिकमिति, क्वचित् प्रत्ययस्य लोपः जातः अस्ति, अतः तत्र केवलं प्रातिपदिकस्यैव श्रवणम् अस्माभिः श्रवणं भवति इति वैशिष्ट्यम्। इदानीं तृतीयपञ्चमाध्यायस्य स्वरूपम् अवलोकयामः। चतुर्थपञ्चमाध्याययोः प्रधानाः अधिकाराः एते भवन्ति, प्रातिपदिकाधिकारः इति, ज्ञाप्रातिपदिका अयञ्च अधिकारः, भवद्भिः सर्वैः ज्ञायते पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् निष्प्रवाणिश्चेत् सूत्रपर्यन्तम् प्रातिपदिकाधिकारः वर्तते। एवञ्च अनेन इदमवगम्यते धातोः इत्यधिकारः समाप्तः, प्रातिपदिकात् इत्यधिकारः आरब्धः। प्रातिपदिकात् प्रत्ययाः भवन्ति इत्यर्थः भवति। पूर्वं प्रत्ययः इत्युक्तं तृतीयाध्यायस्य प्रथमपादे प्रत्ययः भवति, परश्च परः भवति, कस्मात् इति सन्देहः जायते खलु। प्रातिपदिकः प्रातिपदिक प्रत्ययः भवति, अस्तु अङ्गीकुर्मः, प्रत्ययः भवति। परः भवति, कस्मात् परः, काचित् अवधिः स्यात्। इदानीं रामः गच्छति, ग्रामं गच्छति इति भवति, कुतः गच्छति इत्यपि सन्देहः भवति खलु। तद्वत् इहापि सन्देहः भवति, कस्मात् प्रत्ययः भवति। अतः तत्र उक्तं धातोः परः प्रत्ययः भवति इत्यर्थः लब्धः। तथैव अत्र प्रातिपदिकात् परः प्रत्ययः भवति इत्यर्थः लभ्यते। प्रातिपदिकात् इत्यधिकारात् ततः स्त्र्यधिकारः अस्ति स्त्रियामिति। स्त्र्यधिकारे स्त्रीप्रत्ययाः प्रोक्ताः। अनुपसर्जनाधिकारः इति कश्चन अधिकारः, तद्धिताधिकारः इत्यपि कश्चन अधिकारः अस्ति, एवं समर्थाधिकारः इत्यधिकारः। तद्धिताधिकारः इत्ययमधिकारः अत्र प्रत्ययाधिकारे, अत्र प्रातिपदिकाधिकारे महान् अधिकारः अयं तद्धिताधिकारः। अयं च अधिकारः चतुर्थाध्यायस्य प्रथमपादस्य एकाशीतितमसूत्रात् द्व्यशीतितमसूत्रात् आरभ्य पञ्चमाध्यायसमाप्तिपर्यन्तम् अधिकारः अस्य वर्तते। इत ऊर्ध्वं ये ये प्रत्ययाः विधीयन्ते तद्धिताः इत्युक्त्वा, तद्धिताः इति सूत्रात् आरभ्य ये ये प्रत्ययाः प्रोक्ताः ते सर्वेपि तद्धितप्रत्ययाः इत्यभिधीयन्ते। तेषां सर्वेषां प्रत्ययानां तद्धितप्रत्ययः इति नाम। पुनः तद्धितप्रत्ययेषु प्रधानाः पञ्चप्रत्ययाः सन्ति। ते एव उत्सर्गप्रत्ययः प्रत्ययाः इति व्यवह्रियन्ते। उत्सर्गः नाम सामान्यप्रत्ययः इत्यर्थः। जनरल् रूल्स् इति आङ्ग्लभाषायाम् उच्यते। जनरल् सफिक्स् इति आङ्ग्लभाषायां यदि वक्तव्यं तथा वक्तव्यं स्यात्। एवञ्च तद्धिते प्राधान्येन पञ्च उत्सर्गप्रत्ययाः सन्ति, प्रायः सर्वत्रापि एते विहिताः। अण् ठक् यत् छः ठञ् इति प्राग्जीव्यतो इति सूत्रेण एक चतुश्चत्वारिंशत् अर्थेषु अण्प्रत्ययः विधीयते। एकः प्रधानः अंशः अत्र अवगन्तव्यः अस्ति भवद्भिः। तद्धितप्रत्ययाः अर्थानाश्रित्य विधीयन्ते। तद्धितेषु अर्थस्य प्राधान्यम् भवति, न तु शब्दस्य। अर्थमाश्रित्य तद्धितप्रत्ययाः विधीयन्ते। यथा अपत्यम् इत्येकः अर्थः, निवासः तस्य निवासः, तत्र भवः इत्येवम् अर्थाः सन्ति। एवञ्च एतेषु अर्थेषु प्रत्ययाः विधीयन्ते। प्राग्दीव्यतो इति सूत्रेण तेन दीव्यति खनति जयति कितिम् इति सूत्रात् प्राक् ये ये अर्थास्सन्ति तेषु अर्थेषु सामान्यतया अण् प्रत्ययः विधीयते इत्यनेन सूत्रेण उच्यते। प्राग्दीव्यतोण् प्राग्दीव्यतः, दीव्यतः नाम तत्र तेन दीव्यति खनति जयति हितम् इति सूत्रम् उच्यते। तावत्पर्यन्तम् चतुश्चत्वारिंशत् अर्थाः प्रोक्ताः, यथा तस्यापत्यम् इति एकः अर्थः, ततः परं तेन रक्तं रागात् इत्यपरः अर्थः, नक्षत्रेण युक्तः कालः इत्यपरः अर्थः, दृष्टं सामा इत्येकः अर्थः, इत्येवं क्रमेण चतुश्चत्वारिंशदर्थेषु प्राग्दीव्यतो इति सूत्रोक्त अण्प्रत्ययः विहितः वर्तते. 44 चतुश्चत्वारिंशदर्थेषु प्राग्दीव्यतो इति सूत्रेण प्रोक्तः अण्प्रत्ययः विहितः वर्तते. चतुस्त्रिंशदपि अर्थाः कथितार्थाः, तद्धितेषु प्रोक्ताः अर्थाः, तेषु अर्थेषु एते तद्धितप्रत्ययाः विधीयन्ते अण्ठक् इत्यादय. चतुश्चत्वारिंशदर्थेषु अण् प्रत्ययः प्रोक्तः, तत्र तन्मध्ये प्रत्येकम् अपि अर्थे सामान्यतया अण् प्रत्ययः, ततः परं विशेषतया अपवादरूपेण. अपवादो नाम कः इति मया प्रायः प्रथमद्वितीयकक्ष्ययोः उक्तः वर्तते, अतः विशेष तत्र विशेष एतत् न उच्यते इदानीं चर्चा. अपवादः नाम विशेषसूत्रं भवति, अपवादत्वेन कानिचन सूत्राणि पठितानि. अर्थात् क्वचित् अण् प्रत्ययः न भवति, इत्यादयः प्रत्ययाः भवन्ति, ऐ इत्यादयः. एवञ्च प्राग्दीव्यतो इत्यनेन विधीयमानः अण् प्रत्ययः सामान्यः प्रत्ययः, ततः परं ये प्रत्ययाः उच्यन्ते मध्ये, उदाहरणार्थं तस्यापत्यम् इति सूत्रेण अपत्यार्थे प्राग्दीव्यतो इति सूत्रेण अण् प्रत्ययः विधीयते. ततः परम् अत इनि इति एकं सूत्रं पठ्यते. अत इनि भवन्तः पुस्तकम् उद्घाटयन्ति चेत् भवन्तः द्रष्टुं शक्नुवन्ति चतुर्थाध्यायस्य प्रथमपादस्य द्विनवतितमं सूत्रं भवति तस्यापत्यमिति. एवञ्च अपत्यार्थे इदानीं प्रत्ययाः आरब्धाः, तद्यदाग्रे भवन्तः पश्यन्ति ततः सूत्रद्वयानन्तरं भवद्भिः एकं सूत्रं प्राप्यते अत इङ्ति. पञ्चनवतितमं सूत्रमस्ति अत इङ्ति. एवञ्च अत इङ्ति यत् सूत्रमस्ति तत् सूत्रं तस्यापत्यम् अर्थात् प्राग्दीव्यतो सूत्रे अण्ति विहितं तस्य अपवादः भवति, अणः अपवादः भवति अत इति सूत्रम्. तस्यापत्यमिति सूत्रेण अपत्यार्थः उक्तः, अपत्यार्थे सामान्यतया अण् प्रत्ययः, शब्दः कीदृशो वा भवतु सामान्यतया अण् प्रत्ययः विधीयते. परन्तु यदि अकारान्तः शब्दः भवति तदा अण् प्रत्ययः न भवति अपि तु इ इति प्रत्ययः भवति, इत्ययं विशेषः अवगन्तव्यः. तथैव क्रमेण अन्येषां विषये अपि अधिगन्तव्यम्. अण् ठक् यत् छः ठञ् इत्येवं प्रधानाः पञ्चप्रत्ययाः प्रोक्ताः, ये च तद्धिते पञ्चमहोत्सर्गाः इति व्यवह्रियन्ते. तद्धितमहोत्सर्गाः, उत्सर्गः नाम सामान्यम् इत्यर्थः. तद्धिते पञ्चमहोत्सर्गप्रत्ययाः भवन्ति अण् प्रत्ययः, सजप्रत्ययः प्राग्दीव्यतोणि सूत्रेण उच्यते चतुश्चत्वारिंशदर्थेषु. ठक् प्रत्ययः, अयं च प्रत्ययः प्राग्वहते ठक् इति सूत्रेण उच्यते षट्त्रिंशदर्थेषु. चतुर्थाध्यायस्य चतुर्थपादस्य प्रथमसूत्रात् अयं प्रत्ययः आरभ्यते. ततः यत् प्रत्ययः उच्यते प्राग्झिताद्यत् इति सूत्रेण एकत्रिंशदर्थेषु प्राग्झिताद्यत् इति सूत्रेण यत् प्रत्ययः प्रोक्तः स च प्रत्ययः चतुर्थाध्यायस्य चतुर्थवारस्य पञ्चसप्ततितमसूत्रादारभ्यते, ततः अग्रे गच्छति. तथैव छ प्रत्ययः त्रिषु अर्थेषु प्रोक्तः, प्राक्त्रीताच्छः इति सूत्रेण त्रिषु अर्थेषु प्रत्ययः उक्तः। ततः ठञ् प्रत्ययः प्राग्वदेश ठञ् इति सूत्रेण ठञ् प्रत्ययः सप्तविंशति अर्थेषु। एवञ्च तद्धिते पञ्चममोत्सर्गः इत्ययं विचारः तुरीय पञ्चमाध्याययोः प्रधानेन वर्ण्यः विषयः भवति। ततः परम् समासान्ताः केचन प्रत्ययाः प्रोक्ताः ये च कथितप्रत्ययेषु एव अन्तर्भवन्ति, परन्तु समासस्य अन्ते ते प्रत्ययाः योज्यन्ते। राजा सखिभ्यश्च इति तच् प्रत्ययः इत्येवं केचन प्रत्ययाः प्रोक्ताः ये च पञ्चमाध्यायस्य अन्तिमपादे केचन केषुचित् सूत्रेषु ते विचाराः दृश्यन्ते समासान्ताः इति अधिकारात् आरभ्य। एवञ्च तृतीयाध्याये धातुविषयः प्रोक्तः, चतुर्थपञ्चमाध्याययोः सुप्रत्ययः, तथितप्रत्ययाः, स्त्रीप्रत्ययाश्च प्रोक्ताः, विशेषसमासान्तप्रत्ययाश्च प्रोक्ताः। एवम् अधिगन्तव्यः विषयः अस्ति तृतीयचतुर्थपञ्चमाध्यायेषु केवलं प्रत्ययाः एव निर्दिष्टाः विविधेषु विषयेषु। ते च विविधाः विषयाः भवन्ति धातवः, धातुभ्यः विहिताः प्रत्ययाः, तिङ् कृत् सनादयः, सनादीनाश्रित्य धातुसंज्ञापि क्वचित् प्रदत्ता, तथैव पुनः चतुर्थाध्यायस्य प्रथमपादे ज्ञाप्रातिपदिकादिति अधिकारादारभ्य प्रातिपदिकेभ्यः प्रत्ययाः विहिताः, तत्र प्रातिपदिकेभ्यः विहिताः प्रत्ययाः स्त्रीप्रत्ययाः, सुप्रत्ययाः, तथितप्रत्ययाः, तत्र प्राधान्येन चतुर्थपञ्चमाध्यायोः तद्धितप्रत्ययस्य विश्लेषणं कृतं, तद्धितप्रत्ययस्य तद्धिताः इति सूत्रेण आरम्भः जायते, तद्धिताधिकारस्य स चाधिकारः चतुर्थाध्यायस्य प्रथमपादे पादादारभ्य पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्र निष्प्रवाणिश्चेति सूत्रपर्यन्तं तस्य अधिकारस्य व्याप्तिः अस्ति। तस्मिंश्च अधिकारे पुनः विशेषास्सन्ति पञ्चमहोत्सर्गाः इति, ते च पञ्चमहोत्सर्गाः भवन्ति पञ्चमहोत्सर्गप्रत्ययाः अर्थात् सामान्यप्रत्ययाः भवन्ति अण्य ठक् यत् छः ठी इति। अण् प्रत्ययः प्राग्वीव्यतो णित्सूत्रेण चतुश्चत्वारिंशदर्थेषु विहितः, ठक् प्रत्ययः प्राग्वहते ठक् इति सूत्रेण षट्त्रिंशदर्थेषु विहितः, यत् प्रत्ययः प्राग्धिराज्यति सूत्रेण एकत्रिंशदर्थेषु विहितः, छप् प्रत्ययः प्राक्रीताच्छः इति सूत्रेण त्रिषु अर्थेषु विहितः, ठञ् प्रत्ययः प्राग्वतेष्ठञ् इति सूत्रेण सप्तविंशति अर्थेषु विहितः। ततः परं सामान्यप्रत्ययविधानानन्तरं केचन विशेषप्रत्ययाः अपि सन्ति, कालाधिक विशेष अधिकाराः अपि केचन लघु अधिकाराः तद्धिते तद्धितेषु वर्तन्ते, तेषु विशेषु विशेषचिन्तां न क्रियते अधुना, यतोहि विस्तृतविचाराः भवन्ति। सामान्यपरिचयः मया भवतां कृते दीयते अत्र। सामान्यपरिचयविषये तु एते विचाराः पर्याप्ताः भवन्ति। एवञ्च तद्धिते पञ्चमहोत्सर्गाः ये सन्ति ते विचारः अत्र तद्धितेषु प्राधान्यं वहति, तत् विचारः मया प्रोक्तः। ततः परं समासान्तविचारः प्रोक्तः प्रथमा पञ्चमाध्यायस्य चतुर्थपादे। द्वितीय तृतीयपादयोः तद्धितेषु केचन सामान्याः प्रत्ययाः सप्रत्ययः, मतुप्रत्ययः इत्यादि प्रत्ययाः तत्र प्रोक्तास्सन्ति, ते च प्रत्ययः भवन्तः ग्रन्थमुद्घाटयन्ति चेत् स्वयं द्रष्टुं शक्नुवन्ति, यतोहि भवन्तः इदानीं तस्मिन् विषये समर्थास्सन्ति इति मम अभिप्रायः। ग्रन्थे प्रत्ययानामन्वेषणे केवलं तत्र स्थूलाक्षरैः केचन प्रत्ययाः प्रोक्तास्सन्ति, ठक् ठञि क्वप् इत्येवमेव प्रत्ययानां स्वरूपं भवति, भवन्तः तान् दृष्ट्वा अधिगन्तुं शक्नुवन्ति। इत्येवञ्च तद्धिते पञ्चमहोत्सर्गाः तथैव तृतीयचतुर्थाध्यायविषये अस्माभिः तृतीयचतुर्थपञ्चमाध्यायानां विषये अस्माभिः अद्य चिन्तितम्। एतेषु विषयेषु यदि भवतां सन्देहः स्युः भवन्तः प्रश्नान् कर्तुमर्हन्ति। पुनश्च अग्रिमासु कक्षासु अग्रिमकक्षायां मया षष्ठाध्यायस्य स्वरूपं सप्तमाध्यायस्य स्वरूपम् एवम् अष्टमाध्यायस्य स्वरूपं वक्ष्यते। ततः परं प्रायः कक्षायाः अन्तिमकक्षा भवेत् भवताम् अस्य मासस्य अन्तिमाभ्यन्तरे भवताम् अयं पाठ्यक्रमः प्रायः समाप्तिमेष्यति इति भावयामि। यदि अग्रिमासु कक्षासु कोऽपि क्लेशः यदि न स्यात्, ततः परं यदि भवन्तः इच्छन्ति अस्य अष्टाध्याय्याः विस्तृतकक्षा भवेत्, तर्हि तत्र व्योमसंस्कृतपाठशालायां भवन्तः यदि स्व इच्छां प्रकटयिष्यन्ति तदनुगुणं कक्षायाः पुनः नूतनपाठ्यक्रमस्य आरम्भः भविष्यति। इदानीं तु एषा कक्षा तु प्रायः इतोपि सप्ताहद्वयं प्रचलिष्यति। अत्र अद्य पाठितेषु विषयेषु भवतां कोऽपि यदि सन्देहः स्यात् तर्हि प्रष्टुमर्हन्ति, अन्यथा इयं कक्षा अत्रैव समाप्तिमेष्यति।